सर्वेभ्यः नमस्कारः. अद्य सिद्धान्तकौमुद्याः विसर्गसन्धिप्रकरणे द्वितीया कक्षा. Can you see my screen?
Not yet, sir.
No?
Yes.
Now you can?
Yes.
Okay. Somebody raised their hands. Okay, fine. We'll start then. एनाक्षरसमं न्यायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य स वैयाकरणसिद्धान्तकौमुदीयं विरच्यत. यथा पूर्वकक्षायाम् अधीतं, विसर्गस्य उत्पत्तिः खरवसानयोः विसर्जनीयः इति सूत्रेण भवति. खरिपरे अथवा अवसाने रेफस्य स्थाने विसर्गः भवति. अवसाने तु कोऽपि सन्धिः न भवति. विसर्गः यथा अस्ति तथैव तिष्ठति. खरिपरे तु सन्धेः अवकाशः अस्ति. तत्र के के सन्धयः सम्भवन्ति? आदौ सामान्यतः खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गस्य उत्पत्तिः. ततः सामान्यतः विसर्जनीयस्य सः इत्युच्यते. खरिपरे विसर्गस्य सकारः भवति. इदम् औत्सर्गिकं सूत्रम्, किन्तु सर्वत्र न प्रवर्तते. अर्थात् सर्वेषु खर्वर्णेषु परेषु सत्त्वं न भवति. कदाचित् अपवादः अपि अस्ति. तस्मात् अपवादम् आदौ अधीत्य ततः उत्सर्गः पठनीयः. शर्परे विसर्जनीयः इति अस्य अपवादः. अर्थात् शर्परे खरि खर्वर्णः अस्ति. खर्वर्णात् परत्वेन शर्वर्णः अस्ति चेत् विसर्गस्य स्थाने विसर्ग एव भवति. यथा घनाघनः क्षोभणः, ककारः खर्वर्णः, तस्मात् परत्वेन षकारः शर्वर्णः. एतस्मिन् परे विसर्गस्य स्थाने सत्त्वं न भवति. यद्यपि विसर्जनीयस्य सः इत्यस्ति, तथापि सत्त्वं न भवति. वा शरि शर्वर्णेषु परेषु विकल्पेन सत्त्वं भवति. हरिस् शेते इति स्थितेश्चुत्वे हरिश्येते अथवा हरिः शेते. खर्परे शरि वा विसर्गलोपो वक्तव्यः. स एव शर्वर्णः यदि खर्परकः. शर्वर्णात् परत्वेन खर्वर्णः अस्ति चेत् दिस् इस् द रिवर्स् आफ् शर्परे विसर्जनीयः. शर्परे विसर्जनीयः अप्लैस् वेन् देर् इस् अ खर् फालोड् बै शर्, whereas this vartika applies when there is a shar which is followed by khar. Tadatu visargasya lopah bhavati pakshe, tadabhave visargasya sthane visarga eva bhavati athava sattvam bhavati. So these are the exceptions to sattva. So the, generally we say when visarga is followed by a khar varna, where is sattva. But if the following letter is either ka or pa, first thing which we'll study today, there is Dhishvamulya and Upadhmaniya. If the following letter is a shar, then there is sattva optionally. If the following letter is ka or pa, that is kavarga, khar which is followed by shar, then we have visarga replacing visarga. Then if there is a shar which is followed by khar, then there is a visarga lopa optionally. So barring all these cases, there is sakara. If none of the other sutras apply, if there is no kakara pakara, or if there is no sharpara or shar or kharpara shar, then we have sakara in place of visarga. Etavad adhitam. Idanim visarjaniyasya sahaityasya apavadatvena sharpare visarjaniyaha va shari kharpare shari va visargalopo vaktavyaha iti trini shastrani adhitani. Aparamapi shastram vartate kupvoh kahpocha. Purvamapi adhitam idam sutra. I already studied this sutra, but for since it goes along with this prakarana, we are studying it again. Kahartha padatrayam asti kupvoh kahpocha. Visarjaniyasya saha iti sutra deva visarjaniyasya iti anuvartate. Visarjaniyasya iti shashti. Visargasya sthane kupvoh iti saptami. Ku iti kavargaha, pu iti pavargaha. अनुदित सवर्णस्य चाप्रत्ययः इत्यनेन सवर्णग्रहणात् कु इति इत्युक्ते क ख ग घ ङ, पु इत्युक्ते पु फ ब भ म. तस्मात् कवर्गे पवर्गे च परे विसर्गस्य स्थाने अह्कौ अह्क इति जिह्वामूलीयः अह्प इति उपध्मानीयः कवर्गे परे जिह्वामूलीयः आदेशः भवति पवर्गे परे उपध्मानीयः आदेशः भवति च चात् विसर्गोऽपि भवति अर्थात् जिह्वामूलीययुक्तम् एकं रूपं विसर्गयुक्तम् एकं रूपम् एवमेव पवर्गे परे उपध्मानीयसहितमेकं रूपं विसर्गसहितमेकं रूपं कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमात् जिह्वामूलीय उपध्मानीयौ स्तः चात् विसर्गः च इत्युक्तत्वात् यदि चकारः नासीत् तर्हि अपवादत्वेन विसर्जनीयस्य सः इत्यस्य अपवादत्वेन जिह्वामूलीयः उपध्मानीयो वा स्यात् किन्तु विसर्गः न स्यात् उभयम् इष्यते तस्मात् च इत्युक्तम् उदाहरणम् अत्र अस्ति कः करोति कवर्गे परे जिह्वामूलीयः कः करोति इत्येकं रूपं कः करोति इत्यपरं कः खनति कः खनति कः पचति कः पचति कः फलति कः फलति इति कुप्पोः कः पौच इत्यस्य उदाहरणानि सो दीस् आर् द एक्साम्पल्स् इवन् दो द सूत्र मेन्शन्स् कवर्ग एण्ड् पवर्ग एस् वि डिस्कस्ड् अर्लियर् सिन्स् विसर्ग इस् फौण्ड् ओन्ली बिफोर् द कर्कश व्यञ्जनास् दट् इस् द फस्ट् टू लेटर्स् जिह्वामूलीय एण्ड् उपध्मानीय आल्सो विल् अपियर् ओन्ली बिफोर् इदर् ककार आर् खकार आर् पकार आर् फकार सो दिस् इस् द एक्चुलि अनदर् जनरल् सूत्र दो कुप्पोः कः पौच इस् एन् एक्सेप्शन् टु विसर्जनीयस्य सः देर् आर् फर्दर् एक्सेप्शन्स् टु कुप्पोः कः पौच इट् इस् इवन् वेन् फालोड् बै कवर्ग आर् पवर्ग देर् आर् केसस् वेर् इदर् वि हेव् सकार आर् षकार दट् मेक्स् अप् द रेस्ट् आफ् द chapter that is visargasandhi visargasandhi is only this much where there is sattva sakara is one possibility visarga being replaced by visarga is another possibility visarga getting lopa is one possibility visarga getting either jihvamuliya or upadhmaniya is another there are actually four now as an exception to kupvah kapaucha that is exception to jihvamuliya and upadhmaniya you have further sutras All the sutras which we study from now on are exceptions to this sutra. Kuppoh kappocha ityasya apavadatvena yani sutrani santi tanyeva itah param uchyante. Tatra sarvatra and there is one general rule everywhere. All exceptions to kuppoh kappocha will mandate either a sakara or shakara, murdhanya shakara. If the visarga is following akara, then there will be sakara. If it is following any invarna, there will be shakara. That is a general rule. Yadi akarat paratvena visargah asti, tada sakarah adeshah bhavati. Yadi ikara ukara inah paratvena sakarah visargah asti, tarhi shakarah bhavati. So that is all is there in visarga sandhi. We just have to see what are the sutras and what are the cases in which we get these sakara or shakara. But the general rule is, first thing, they are all exceptions to kuppoh kappocha. Second thing, there is either a sakara or shakara, depending on the letter which precedes the visarga. If the letter which precedes the visarga is akara, that is a or a, then we have sakara desha. If the letter preceding the visarga is in, that is any other swara or hayavarat and lan, then we have shakara, murdhanya shakara. सोपदादौ इति प्रथमं सूत्रं कुप्पोः कः पौच इत्यस्य अपवादभूतं शिशीद सूत्रक्रम स्टार्टिङ्ग् फ्रम् विसर्जनीयस्य सः विसर्जनीयस्य सः इति अष्टमाध्यायस्य तृतीयपादस्य चतुस्त्रिंशत्तमं सूत्रम् इट् इस् 8.334 सूत्रक्रम इस् विसर्जनीयस्य सः शर्परे विसर्जनीयः वाशरि वार्तिकं च कर्परेशरि वा विसर्गलोपः कुप्पोः कः पौच इदानीं सोपदादौ इति दिस् आर् आल् इन् द सीरीस् इन् अष्टाध्यायी पदद्वयमस्ति सः अपदादौ विसर्जनीयस्य सः इति सूत्रात् विसर्जनीयस्य इति अनुवर्तते कुप्पोः कः पौच इत्यतः कुप्पोः इत्यपि अनुवर्तते कः अर्थः अपदादौ कुप्पोः इति सप्तमी उभयं सप्तमी कुप्पोः परयोः कवर्गपवर्गयोः परयोः कीदृशयोः कवर्गपवर्गयोः अपदाद्योः पदादौ अविद्यमानयोः सो वेन् फालोड् बै ककार आर् पकार विच् इस् नाट् अट् द बिगिनिङ्ग् आफ् अ पदा If you saw the examples of kupoka force, yeah? Kah karoti, kah khanati, kah pachati, kah phalati. Sarvatra kakaraha pakarascha padadau vartate. Padasyadau kakaraha pakaraha. Yadi padasyadau nasti kakaraha pakarova. Kahartaha. Pratyasyadau asti ityevartaha. If it means, if it is, by saying it is not at the beginning of a pada, we effectively say that it is a pratyaya. That is, if there is a pratyaya which is beginning either with kavarga or pavarga. Apadadau kuppoho parayoho visarjaniyasya. Shashti visargasya sthane saha iti prathama sakarasya prathama vibhaktihi sakaraha syat sakaraha adeshaha bhavati visarjaniyasya saha syat apadadyohu kuppohu parayohu. So when followed by kavarga or pavarga which are not situated at the beginning of a pada, visarga is converted to sakara compulsorily. Question is, where do we find a kavarga or pavarga which is not at the beginning of a pada? That is clarified by the Vartika. This Vartika is not an exception to the rule or an addition. It just clarifies where is it that we find kavarga or pavarga which is not at the beginning of a pada. Apadadau kavargaha pavargova kutra bhavati iti chet pasha kalpa ka kamyeshu iti vachyam. Chatvaraha pratyayaha santi pashap kalpap ka kamyach ityeteshu pareshu visargasya sthane sakaraha bhavati. These are the pratyayas which have kakara or pakara at the beginning. Only these. Eteshu pareshu sopadadav iti visargaha pravartate. Kimudaharanam payaha pasham. Pashap iti pratyayaha kutsitam payaha. Milk which is gone bad. Is called kutsita. Kutsita means that which is condemnable, but it means milk which has gone bad. Kutsitam payaha ityarthe yapye pashap yapye nama nindarthe pashap iti pratyaha vidhiyate. So pashap is a tadhita pratyaya which is added to pratipadikas to give the sense of ninda. So payaha pasham ityarthe payaha payas iti shabdante pashap pratyaha kriyate. Sakarasya ruttvam visargaha payaha pasham iti sthite sopadadau iti sutrena visarge payas pasham. Similarly kalpap iti tadhita pratyaha isha dasamaptam isha dasamaptau kalpap. That which is not yet complete, slightly incomplete, that is the sense of the pratyaya which is called kalpap. They say brahmana kalpaha or vidvat kalpaha is the most famous usage. He's almost a scholar but is not yet. I mean, there are some lacunae in his education probably. So that is the sense of kalpap. So yashaha yashas shabdat kalpap pratyaye pare yashaha kalpam iti sthite sopadadav ityanena sakare yashas kalpam. Kam kap pratyaya is a very common pratyaya. Agnyatam kutsitam ityubhayoho arthayoho kap pratyaha bhavati. Agnyatam yashaha kutsitam yashaha va yashaha kam iti sthite sopadadav ityanena sakaradeshe yashaskam. Antimah pratyaha kamyach sanadyantaha idam tu sanadi pratyayesha antarbhavati kamyach iti pratyaha yashaha atmanaha icchati ityarthe yashaha kamyati sthite sakare yashaskamyati. So these are the four cases where sopadadav can apply. It tells generally that wherever there is kavarga or pavarga which is not at the beginning of a pada, we get sattva. But where is it that we have kavarga or pavarga which is not at the beginning of a pada? It is these. You have pashap, kalpap, ka and kamyach. Four pratyayas. Eteshu pratyayeshu pareshu visargasya sthane sattvam bhavati. Jihvamuliyam upadmaniyam cha badhitva. In the absence of this sutra, what we would have had is payah pasham, jihvamuliya or upadmaniya. So kuppoh kappocha ityasya apavadabhutam prathamam sutram sopadadav apadadyoho kuppoho parayoho visargasya sthane sattvam bhavati. Clear? Any questions? Asmin. Okay. Vasuji?
My question is, Sopadaro,
What is the Vada in front of the Visarga? That will study in the next prakarana. That is where we see. That is not a Visarga, sir. As I told, I am frustrating myself. So, we haven't studied it yet, so don't worry. अस्मिन्नेव सूत्रे वार्तिकमस्ति अनव्ययस्य इति वाच्यम् सोपदादौ इति यः विसर्गः उक्तः अनव्ययस्य यदि अव्ययं भवति तर्हि तस्य पाशकल्पककाम्येषु सत्वं न भवति उदाहरणं सोपदादौ इति विधिः अव्ययस्थस्य विसर्गस्य न भवति यदि अव्यये विसर्गः अस्ति तर्हि सत्वं न भवति प्रातः कल्पं प्रातर् इति अव्ययं रेफान्तम् अव्ययं तस्य खर्वसानयोर् विसर्जनीयः इति विसर्गादेशः इदानीं प्रातः कल्पम् इति स्थिते कल्पप्रत्ययः तथापि अनव्ययस्य इति वाच्यम् इति वार्तिकेन अत्र सत्त्वं न भवति जिह्वामूलीयः विसर्गश्च प्रातः कल्पं प्रातः कल्पम् काम्ये रोरेवेति वाच्यम् वन् मोर् वार्तिका काम्ये अर्थात् काम्यच् प्रत्यये परे So that Kamyach was one of the pratyayas which is in the list. Kamyach pratyaye pare roreva visargaha. Iti vaktavyam. Kaha adhaha. Kamyach pratyaye pare rusthanikasya eva visargasya sopadadav iti vidhihi bhavati. Kin nama idam. Visargotpatthi dvidha. There are two ways, I mean, there is only one way which we get a visarga. But if we go to its origins, there are two things. First is, सकारः भवति आदौ सकारः भवति सकारस्य ससजुषोरुः इत्यनेन ऋत्वं भवति तस्य रुः रु रोः खर्वसानयोर्विसर्जनीयः इति विसर्गः भवति विल् स्टडि दिस् अगेन् लेट् मी टेल् यू द जनरल् इन् 90% आफ़् द केसस् हौ वि गेट् विसर्ग इस् इनिशियलि देर् इस् अ सकार इदर् द सकार आफ़् ए प्रत्यय आर् इन् अ प्रातिपदिका समटैम्स् सो देर् इस् अ सकार which is gets the ru as the adesha ru ityatra ukaraha itsamyakaha r iti rephadeshah bhavati tasya rephasya sthane kharvasanayor visarjaniyah iti visargah bhavati udaharanam tam ramah ityasti rama shabdat prathama vibhakta ekavachane su pratyayah rama s iti sthite sasajusho ruhu iti rama r tatah kharvasanayor visarjaniyah ramah evam dhanuh dhanush ityasya dhanuh so this is one way There is also one way that where there is an original repha itself, there is no sakara. Swayam rephantani padani santi. You need not get a repha from sakara. One is sakara to repha to visarga is one way. Directly there is a repha and you get a visarga is another way. Yatha punar iti avyayam asti. Punar iti rephantam avyayam. It is originally rephanta. So then it gets converted to visarga. Similarly, gir shabdaha, gihi girau giraha, rephanta shabdaha. So these are one category. There are two categories. One where there is a sakara to ru to visarga and there is repha to visarga. There are two cases. Kamye, yadi kamyach pratyaye pare sattvam bhavati, tarhi ro reva, ruhu nama, those which are come by this root. That is, there is rutva and visarga. Only for those shabdas you have a sattva when followed by kamyach which means if there is a pada belonging to this category that is either punaha or gihi svayam rephantaha shabdaha tesham kamyach pratyaye pare sattvam na bhavati kumudaharanam gih kamyati itteva asti gihi gir iti rephantam avyam tatra rutvam nasti yadi rutvam nasti tarhi sattvam api na bhavati gish kamyati iti na bhavati जिह्वामूलीयः गीः काम्यति अथवा विसर्गः गीः काम्यति रैट् सो वेन् फालोड् बै काम्यच् इफ् इट् इस् एनी अदर् थिङ्ग् लैक् गीः पाशं गीष् पाशं वुड् प्रोबेबलि हेपन् बट् इफ् इट् इस् काम्यच् प्रत्यय देन् इट् इस् ओन्ली द रु द विसर्ग विच् इस् रिप्लेसिङ्ग् रु विल् विच् विल् गेट् सकारादेश एण्ड् नाट् अ विसर्ग विच् इस् रिप्लेसिङ्ग् एन् ओरिजिनल् रेफ इस् द क्लियर् अग्रिमं सूत्रमस्ति इणश्शः same thing which we told sopadadav ityeva inaha shaha yadi inah parah visargah tarhi shatvam bhavati. This sutra is the basis of what I told before starting. I told that if the visarga is preceded by akara, it is sa. If it is followed by preceded by in, it is sha. It is because of this. It says inashaha. Padadvayam vartate. Visarjaniyasya saha ityataha visarjaniyasya iti anuvartate. Kupvoh kahpaucha ityataha kupvoh iti anuvartate. Sopadadav iti purnam anuvartate. Saha iti nanuvartate. Apadadav iti anuvartate. Inaha iti panchami. Inah parasya visargasya sthane apadadav kupyohu padadav avidyamanayohu kavarga pavargayohu parayohu shaha shakara adeshah bhavati mudhanya shakara adeshah bhavati tada inah parahaschet saha visargaha inah paratvena astichet inah parasya visargasya shakarahasyat purva vishaye. That is why if we go back and look at the examples which we had for this, you have payaha, yashaha, both of them there is visarga which is preceded by akara. So if visarga is preceded by akara, we get sakara. If visarga is preceded by in, we get shakara. Sarpihi pasham, sarpish shabdat pasha pratyaye pare, sarpish pasham, sarpish kalpam, sarpishkam, sarpishkamiti. So where the same things. Pashakalpaka kamyeshu pareshu ina uttarasya visargasya shakaradeshu bhavati. Atrapi, all the vartikas which applied there will also apply here. Pashakalpaka kamyeshu iti vachyam, anavyayasya iti vachyam, kamye roreveti vachyam. Iti vartikani atrapi sambadhyante. Uchaihi kalpam ityasti. Invarnaha, invarnat paratvena visargaha, kintu uchais iti avyayam. Avyayasya shatvam na bhavati. Tasmat uccaih kalpam iti va. Punaha gihi kamyati. Chatra yatha tatra drishtam. Roreva. Rusthanikasyaiva visargasya shatvam bhavati. Natu rephanta shabdanam yaha visargaha tasya. Right? So both these deal with the same case. That is apadadav. If there is kavarga or pavarga which is not at the beginning of a pada, then we have either sakara or shakara depending on the letter which precedes the visarga. Agrimam sutram bhavati namaspurasor gatyoho paradvayam namaspurasoho gatyoho visarjaniyasya kupvoho saha iti anuvartate. Yes, Ravichandran, you have a question?
Yeah, the previous sutra you said, the example given was
Uchaihi kalpam, yes.
Kalpam, but it is inahasha, right?
Yeah.
So I own, so ERO, so how is this pravarti happening here for Aikara?
Yeah, yeah, understood. His question is, inashaha ityuchyate. The previous sutra tells inashaha. And uchaihi, I gave a counter example as uchaihi, where aikara is not in. Right? So how are we? Why is it a counter example? Can somebody answer the question? Atra katham uchaihi kalpam. When we are giving an example, counter example, the rule has to apply. Which means I should show that there is inah paratvena visargaha, kintu avyayatvat shatvam na bhavati. Tasya prashnaha atra in eva nasti katham sutrasya pravrittihi. Hiralalji?
Because ina, that involves e and o only. And uchehi, it is ending with I. That is why that particular rule is not applicable here.
Oh no, that is his doubt. His doubt is, since there is no in at all, I gave this as an example for anavyas. Yes, I said since uchaihi is not an avyaya, you don't get shatva. His question is, even if it is avyaya or not, since there is no in, there is no pravritti of the sutra, is what Ravichandranji asks. Is that correct? Is there an answer to that?
Yes,
Is his question clear? Is the question clear? If the question is clear, you should know the answer because it's very simple. Masuji?
The question is clear. Is it kalpam is the avyayam or
Uchaihi? Uchaihi is the avyayam.
Uchaihi. So you gave the example for an avyayam.
Correct.
Yeah. So it was not the nisheda for.
No, I can give it as an example for anavyayasya only if inashaha applies. I mean, when can I say anavyayasya iti vachyam? When I say all other rules apply, the rules, I mean, all other conditions are satisfied, but still this particular example will not get sattva because it is an avyaya, is what I am saying. Right? I am saying uchaihi kalpam ityatra shatvam na bhavati. किमर्थं न भवति अत्र इणशः इत्यस्य ये नियमाः सन्ति ते सर्वे नियमाः सन्ति इण् अस्ति इणः परत्वेन विसर्गः अस्ति परत्वेन अपदादौ कवर्गः अस्ति सर्वेषु नियमेषु सत्सु अत्रापि षत्वं स्यात् वि शुड् गेट् षत्व हियर् बै इणशः बिकास् देर् इस् इण् देर् इस् विसर्ग एण्ड् देर् इस् अ फालोयिङ्ग् कवर्ग विच् इस् नाट् एट् द बिगिनिङ्ग् आफ् अ पद Even if all conditions are satisfied, there is no shatva here because the Vartika says anavyayasya. If it is avyaya, there is no. So when I am saying all conditions are satisfied, it means there should be an in here. Ravi's question is, there is no in here. I is not in because in is E and U. Hatra ikarah nasti, aikarah asti. Okay, there is one solution which says there is ikara here because it is A plus E is I. No. I is a separate letter. We do not consider it as a combination of A and E. Right, so there is no ikara here. There is only aikara. Is aikara in or not? Is the direct question. Aikara in bhavati va na va. In pratyaharena keke varnaha grihyante.
Possibly the second nakara in the
pratyahara
that is including the
kaita. Not possibly, definitely that is the answer. In pratyahara is always with the second nakara and never with the first. An is always with the purva nakara and in is always with the paranakara. Except there is only one exception to the rule, which is anudit savarnasya chapratyaha. Anudit savarnasya chapratyaha iti sutre an iti parena nakarena. An is always with the purva nakara, which means an is always a, e, u, except in anudit savarnasya chapratyaha. But for in, there is no exception. In is always with lan. E, u, rul, ru, a, o, I, au, haya, varala. Sarvesham varnanam grahanam bhavatyeva. Tasmat aikaraha api in. Inashaha iti sutrasya pravrittihi bhavati. Anavyasya iti nishedhad na bhavati. Right, so please do not forget in. Never write in as E and U, which is wrong. There is no exception at all. If he has to say only E and U, he says vyoho, yakar E and U. He specifies them. He doesn't use in. Masuji?
Then the question is, we should include for applying inashaha all the other ones also.
Sorry?
We have to include the full pratyahara of the end.
Correct.
Not just E and U.
Not just E. If so, there is I or if there is any other example you have, it will apply.
So the computer routine will go through all that. The computer routine, if it does that, it will check through all the.
Correct, it should. It will. If there are prayogas, it will. In is with, not just with E. I mean, the example given here happened to be E and U. But if there are prayogas where there is some other this, then we should get shatva by this. For example, if there is say, but there is no possibility of a visarga. If there are prayogas, let me tell, there would be shatva for even other letters than E and U. Okay. So we'll proceed. नमस्पुरसोर्गत्योः परद्वयं वर्तते नमस्पुरसोः गत्योः विसर्जनीयस्य कुप्वोः सह इति अनुवृत्तिः गत्योः इति षष्ठी अर्थात् गतिसंज्ञकयोः यत्र गतिः इति संज्ञा अस्ति गतिसंज्ञां स्मरन्ति वा उपसर्गाः क्रियायोगे गतिश्च इत्यतः आरभ्यते देर् आर् द उपसर्गा द प्रादीस् गेट् गतिसंज्ञा in association with the kriya, but the gatishcha, there are also many sutras other than that which give gati samnya, which we'll see later. So when there is gati samnya, namas purasoho ityapi shashti, namas puras iti sakarante avyaye etayoho avyayoho visarjaniyasya visargasya sthane kupvoho kavarga pavargayoho parayoho saha sakaradesha bhavati. गतिसंज्ञयोः अनयोः विसर्गस्य सह स्यात् कुप्वोः परयोः सो वेन् नमस् एण्ड् पुरस् हेव् द संज्ञा गति इफ् दे आर् फालोड् बै कवर्ग पवर्ग द विसर्ग विल् गेट् सकारादेश इन्स्टेड् आफ् जिफामूलिया और् पद्मानीया वेरि फेमस् एक्साम्पल् इदानीं गतिसंज्ञा केन इति प्रश्नः गतिश्च इति सूत्रम् अस्ति प्रथमाध्यायस्य चतुर्थपादे ततः बहूनि सूत्राणि सन्ति गतिसंज्ञाविधायकानि तेषु अन्यतमं भवति विभाषा क्री साक्षात् प्रभृतीनि च साक्षात् प्रभृतीनि दट् इस् देर् आर् सम् वर्ड्स् विच् आर् टोल्ड् इन् द साक्षात् गण लैक् साक्षात्कारः देर् आर् अदर् वर्ड्स् आल् दीस् वर्ड्स् क्री कृधातौ परे विभाषा विकल्पेन गतिसंज्ञां प्राप्नुवन्ति द वर्ड्स् विच् आर् बीन् टोल्ड् इन् द गण साक्षात् प्रभृतिगण दे विल् आल् गेट् द संज्ञा गति when followed by kru dhatu and the gati samya is optional. The namas shabda, the word namas has been told in the sakshat prabhuti gana. Sakshat prabhuti ni kri dhatu pare vikalpena gati samya hasyuhu and in that gana we have the namas. So the namas when it is followed by kru dhatu will get gati samya optionally. Namaha karoti, namas karoti, this is how we have namas karoti, right? Because otherwise we should have got jihvamuliya namah karoti, but since there is gati samnya, gati samnyaya gati samnya pakshe sakaradeshah bhavati namas karoti vikalpena gati samnya ityuktam. The gati samnya here is optional, so in the absence of gati samnya sakshat prabhutitvat kriyo yoge vibhasha gati samnya tadabhave, that is when there is no gati samnya, namah karoti or namah karoti. So all three forms are correct. Though we always use namaskaroti, these are also correct. Namah karoti and namah karoti. Because the gati samnya is optional. When there is gati samnya, there is sakara. If there is no gati samnya, there is no sakara. So gati samnya pakshe namaskaroti iti rupam. Tadabhave namah karoti iti rupadvayam. So this is about namas. What about puras? Puras iti shabdasya. पुरोव्ययम् इति सूत्रेण नित्यं गतिसंज्ञा वर्तते दिस् अव्यय द पुरस् मीन्स् इन् फ्रण्ट् आफ् आर् ऐ मीन् इट् लिटरलि मीन्स् इन् फ्रण्ट् आफ् सो पुरोव्ययम् इति सूत्रेण अव्ययं यदा पुर् शब्दः अव्ययं भवति तदा नित्यं गतिसंज्ञा भवति पुरः करोति पुरस्करोति पुरस्करोति मीन्स् टु फेसिलिटेट् फेलिसिटेट् सारि पुरस्करोति नौ अगतित्वान्नेह पूः पुरौ पुरः प्रवेष्टव्याः सो एक्चुली द पुरस् इफ् इट् इस् एन् अव्यय इट् आल्वेस् हेस् गतिसंज्ञ सो वी हेव् सकार पुरस्करोति देर् इस् आल्सो ए प्रातिपदिका काल्ड् पुर् रेफान्तः स्त्रीलिङ्गः पुर् शब्दः पूः पुरौ पुरः देर् इस् इन् प्रथमाविभक्तौ बहुवचने पुरः इति रूपं भवति अस्यापि इदं न अव्ययम् पुरः करोति पुरस्करोति इत्यत्र पुरः इति अव्ययम् अत्र तु प्रातिपदिकं प्रथमाविभक्तौ बहुवचने पुरः इति भवति पुरः प्रवेष्टव्याः इत्यत्र सकारं न भवति द there is no sakara here because there is no gati samya. Punamas purasohu gatyohu. Yatra gati samya tatraiva sakaraha. Yatra avyayatvam tatraiva gati samya. Agaditvan neha puhu purau puraha praveshtavyaha. So Ravichandranji has a question. In prayoga, how do we recognize if namaha is a gati or not? Well, say namaskaroti implies that it has a gati samya. Otherwise, if you say namaskaroti, it does not. Because, I mean, we don't need to recognize if it has gati samya or not. We depend on the karya. If the karya, which is gati samya prayuktam karya masti chet, tatra gati samya asti ityarthah. Tadrisham karyam nasti chet, gati samya nasti. That is all. It is all based on the prayoga. Looking at the prayoga, if there has been some karya which requires gati samya, it means that has gati. If the karya has not been done, it means there is no gati samya. Govinda, I can't see your questions. There are only boxes. I don't know what you are using. But I cannot see the questions. Maybe you can, if you have the microphone, you can ask the question. I'll unmute you. Udaharanam kim? Kasya udaharanam? Gati samya, yatha namaskaroti, ityatra gati samya asti. Namaha, ityasya gati samyayam satyam. Namaskurasor gatyoho, ityanena sattvam bhavati, namaskaroti. Do you mean you want something else which has gati samya? Or, I didn't get the question. Gati samya is there for a lot of things, I mean. Many things and gati samya prayuktani karyani api bahuni santi. Yatha kugati pradayaha ityanena samasaha bhavati. Tataha gati gatiranantaraha ityanena swaraha bhavati. So there are many karyas which depend on gati samya. There are many particles which get gati samya. So we'll all see them sometime later. For now, namas has an optional gati samya. Yada gati samya asti, tada sattvam bhavati. Yada gati samya nasti, tada sattvam na bhavati. Okay. Ukrimam sutram bhavati. Idu dupadhasya cha apratyasya. Paratrayam asti. Idu dupadhasya cha apratyasya. Okay. Visarjaniyasya saha ityataha visarjaniyasya ityana vartate. Kupvohu. Inashaha ityataha shaha iti anavartate. Idu dupadhasya iti shashti. Ikara ukara upadhasya. Ikaraha upadhayam asti ched. Athava ukaraha upadhayam asti ched. Upadha namakim iti ched. Alontyat purva upadha. You see this sutra later. It is a samnya. Upadha iti samnya. Samnya sutram bhavati alontyat purva upadha. Antyadalaha purva varanaha upadha samnyaha syad. Al. Al naam kaha, ai un, akaradarabhya hal, lakara paryantam pratyaharaha, varnaha ityarthaha, al nama varnaha. Antyadalaha purvaha, the letter which precedes the last letter, which means the last but one, the penultimate letter is called upadha. Ikara ukara upadhasya, upadhayam ikaraha asti athava ukaraha asti chet, apratyasya, pratyayavayava bhinnasya, visarjaniyasya visargasya sthane shaha shakaradeshah bhavati. A visarga is replaced by shakara. Two conditions. The first is it has to be preceded by ikara or ukara. That is, ikara or ukara should be in the upadha. And second, the visarga should not be a part of apratyaya. Apratyasya visargasya idudupadhasya ikaro ukaro upadhasya shakaradesho bhavati kupvoho parayoho. Ikara ukara upadhasya apratyasya visargasya shahasyat कुप्वोः निः प्रत्यूहम् इत्यस्ति निस् निर् इति अव्यये प्रादिशु सन्ति प्रपरा अपसम् अनु अव निस् निर् दुस् दुर् इति निस् अथवा निर् उभयोः प्रत्यूहम् इति शब्दे परे विसर्गः निस् इति चेत् ऋत्वं विसर्गः निर् इति चेत् केवलं विसर्गः निः प्रत्यूहम् इत्यस्ति अत्र विसर्गः अस्ति प्रत्ययस्य विसर्गः नास्ति देर् इस् नो प्रत्यय हियर् द विसर्ग इस् नाट् द पार्ट् आफ् अ प्रत्यय एण्ड् इकार इस् इन् द उपधा द उपधा दट् इस् द लास्ट् लेटर् इस् विसर्ग द लेटर् प्रिसीडिङ्ग् इकार विसर्ग इस् इकार इकारोपधस्य विसर्गस्य कुप्वोः परयोः षकारः ऐ टोल्ड् इट्स् अ जनरल् रूल् इफ् देर् इस् एनिथिङ्ग् अदर् देन् अकार इट् विल् बि ष इफ् इट् इस् अकार इट् विल् बि स सो इकारात् परस्य विसर्गस्य पकारे परे षत्वे निष्प्रत्यूहम् आविः कृतम् आविर् इति अव्ययं तस्य विसर्गे आविः कृतम् अत्रापि इकारोपधस्य विसर्गस्य देर् इस् नो प्रत्यय सो द विसर्ग इस् नाट् पार्ट् आफ् अ प्रत्यय इदुदुपधस्य च प्रत्ययस्य इत्यनेन षत्वे आविष्कृतम् यस् Ravi asks, is Visarga Al? Yes. We have told that Visarga, the Ayogavahas, Ayogavahanam Atsu Akaropari Sharshucha Pathaha. All, we studied this in Samskarta, right? When we decide, we are trying to see if Anuswara is Hal or Ach. It is both. Because after Akara, we have the Patha of all Ayogavahas, Anuswara, Visarga, etc. Again, in Sharshasa, we have Anuswara and Visarga. So it is Al. Definitely a varna. In inashaha, apadadyoho kupoho. The question is, what's the difference between this and inashaha? Inashaha applies only if apadadyoho kupoho parayoho. ककारः पकारो वा पदस्यादौ नास्ति तत्रैव इणश्रः इत्यस्य अर्थात् पाशकल्पककाम्येष्वेव तस्य प्रवृत्तिः इणश्रः अप्लैस् ओन्लि वेन् द विसर्ग इस् फालोड् बै पाशकल्प क एण्ड् काम्येच् दिस् अप्लैस् एव्रिवेर् अत्र प्रत्यूहम् इति पदं पदादौ विसर्गः कृतम् इति पदं पदादौ विसर्गः वर्तते अत्रापि षत्वम् इष्यते तदा तु इणश्रः इत्यनेन क्रियते सुजि
Examples like Dushkutam and Nishkatyam, would that be the same?
Correct. Nishprapyam is the same. Nishkrutam, everywhere. If you have Nihi and this, you will get Shakara everywhere. Nishkaranam. Nishkaruna, whatever.
Yeah. How about Dushkrutam?
Yes, exactly. That is the next example of the Kaumudi.
Oh, okay.
दुः कृतं दुष्कृतम् उकारोपधः हियर् द उपधा इस् उकार उकारोपधस्य अत्रापि दुस् दुर् इति अव्यये तेषां स्थाने विसर्गः कह्पयोः परयोः षत्वे दुष्कृतं दुष्कर्म सर्वत्र वेर् एवर् यु हाव् निस् और् दुस् यु गेट् षकार बै दिस् सूत्र इदुदुपधस्य च अप्रत्ययस्य अप्रत्ययस्य इति किम् सो वै स्पेसिफै अप्रत्ययस्य अग्निः करोति इत्युक्ते अग्नि इत्यस्मात् सुप्रत्ययः सुप्रत्ययस्य स्थाने ससजुषोरुः इति ऋत्वं तस्य ऋत्वस्य विसर्गः हियर् द विसर्ग प्रत्यय विसर्ग बिलाङ्ग्स् टु द प्रत्यय सु इस् अ प्रत्यय सो विसर्ग बै दिस् इस् आल्सो प्रत्यय सो प्रत्ययावयवः विसर्गः तस्मादत्र न भवति अग्निः करोति इति न भवति अग्निः करोति इति जिह्वामूलीयः अथवा अग्निः करोति इति विसर्गः वायुः करोति अत्रापि वायुशब्दात् सुप्रत्यये परे तस्य ऋत्वे विसर्गे प्रत्ययस्य विसर्गः तस्मादत्र न भवति इन् दीस् केसस् वी डु नाट् हाव् श्रत्वा बिकास् द विसर्ग इस् प्रत्ययस्य विसर्गः न तु अप्रत्ययस्य Okay. So one more. There's another thing which I want to cover. Okay. So there's a question. Matuhu Krupa. इत्यस्ति. कथं तस्य निष्पत्तिः इति ज्ञातव्यम्. यु सी हौ दट् मातुः इस् डिरैव्ड्. मातृशब्दात् षष्ठेकवचने ङस् प्रत्ययः. ङसि अस् इति शिष्यते. ङकारस्य दशकतथिते इति इत्संज्ञायाम् अस् मातृ अस् इत्यस्ति. इदानीं ऋत उत् इति सूत्रेण ऋकार अकारयोः स्थाने प्रातिपदिके यः ऋकारः प्रत्यये यः अकारः उभयोः स्थाने उकारः एकादेशः क्रियते. सो देर् इस् उकार विच् रिप्लै रिप्लेसस् ऋ एण्ड् अ. इट्स् एन् एकादेश. एण्ड् सिन्स् इट् इस् इन् द स्थान् आफ् ऋकार उरण् रपरः इत्यनेन रपरत्वे मातुर् सु इति भवति. इदानीं प्रत्ययस्य सकारस्य रात्सस्य इत्यनेन लोपः. युः मातुर् खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गः. दिस् इस् हौ वि डिरैव् मातुः. इफ् यु हव् मातुः कृपा किं भवति अत्र षत्वं भवति वा न वा इति प्रश्नः. सो वि वाण्ट् टु नो इफ् यु हाव् अ कवर्ग आर् पवर्ग फालोयिङ्ग् मातुः विल् वि गेट् षत्व. फस्ट् थिङ्ग् आर् द कण्डीशन् साटिस्फैड्. इस् दिस् डस् दिस् विसर्ग बिलाङ्ग् टु द प्रत्यय आर् नाट् इस् द क्वश्चन्. अयं विसर्गः विसर्गः कस्य स्थाने कृतः? रोः स्थाने कृतः रकारः. रः उर् इति एकादेशः. द प्राब्लम् इस् बिकास् दिस् इस् एन् एकादेश. सो दिस् उर् हेस् बीन् रीप्लेसिङ्ग् बोत् ऋकार एण्ड् अकार. नौ दिस् इफ् दिस् उर् बिलाङ्ग्स् टु पूर्व प्रातिपदिक देन् द विसर्ग इस् नाट् प्रत्यय. प्रत्ययस्य विसर्गः न भवति. यदि परस्य अवयवः यदि अस् प्रत्ययस्य अवयवः तर्हि प्रत्ययस्य विसर्गः. Does anybody remember what rule we saw about Ekadesha? Does the Ekadesha belong to the Purva or Para? Wherever we do Ekadesha, is it a part of the Purva Bhaga or a part of the Para Bhaga? Is there any sutra? If there is a sutra, what is the sutra? I want to know.
Hiranlalji? It is the end of the first and the beginning of the second, the
correct.
Next one.
So what is the sutra?
I don't recollect, I know the substance of
it. The question was, Matuhu Ekadeshaha Kritaha, Matru Asityatra Ur Iti Ekadeshaha Kritaha. It is an Ekadesha. Does the Ekadesha belong to the previous part or to the latter? That's the question. Hiralalji said, and others have also said, it belongs to both. It behaves like the ending of the Purva Bhaga and the beginning of Para. Yoyam Ekadeshaha Saha Purvasya Antavat Parasya Adivat Syat. What is the sutra? It's perfectly correct. But what is the sutra? Hemaji? That is the one which tells Ekadesha. It tells the following Adeshas will be Purva Parayohu Ekadeshaha. But which is the sutra which tells the Ekadesha will be a part of the Purva and a part of the Para? Vasuji?
Yeah, that part I recorded it.
It is Antadivaccha. Antadivaccha iti sutram. Yoyam Ekadeshaha Saha Purvasya Antavat Parasya Adivat Bhavati. The Ekadesha will always, it can either be treated as the end of the Purva or the beginning of the Para. Here, if we treat it as the beginning of the Para, yadi Parasya Adivat Bhavati, tarhi Shatvasya Praptihi Nasti, then we will not get Shatva. Because Paraha Pratyayaha, Pratyayasya yadi आदिः भवति एकादेशः तर्हि प्रत्ययस्य विसर्गः इदुदुपधस्य च अप्रत्ययस्य इत्यस्य प्रवृत्तिः नास्ति. बट् यदि पूर्वस्य अन्तवत् इफ् वि ट्रीट् इट् एस् द एण्डिङ्ग् आफ् द प्रातिपदिक देन् अयम् अप्रत्ययस्य विसर्गः. दिस् विसर्ग डस् नाट् बिलाङ्ग् टु प्रत्यय. उकारः उपधायाम् अस्ति एण्ड् देर् इस् उपधा उकार एस् द उपधा. सो इदुदुपधस्य च अप्रत्ययस्य इत्यनेन षत्वं प्राप्नोति. पूर्वान्तवद्भावेन, देर् इस् अ मिस्टेक् हियर्, इट् शुड् बि पूर्वान्तवद्भावेन विसर्गः प्रत्ययावयवभिन्नः. पूर्वान्तः भवति चेत् प्रत्ययस्य अवयवो न भवति. तेन इदुदुपधस्य इति षत्वे प्राप्ते. So we get Shatva by Idadupadasya Chapratyasya. Martikamasti, Ekadesha Shastra Nimittakasya na Shatvam. Yatra Ekadesha Shastrena Visargaha Utpadyate, Tatra Shatvam na Bhavati. Ekadesha Shastra Nimittakasya na Shatvam. Kim Pramanam, Kaskadishu Bhratushputra Shabdasya Pathat. Kaskadishucha iti sutram purvatra adhitam. Etad gana patiteshu, ina uttarasya visargasya shahasya danyasya saha. We'll see this sutra again. We have already seen it again. So this tells in the shabdas, etad gane, kaskadi gane ye shabdaha patitaha, tatra visargasya shakaradesho bhavati. Iti uchyate. Tatra bhratushputraha iti shabdaha patitaha paninina. Panini has included the word bhratushputraha there. Now, yadi bhratuhu putraha. Bhratuhu is derived exactly like matuhu. There is no difference. Okay. So, yadi bhratuhu putraha ityatra idudupadasya chapratyasya ityeva shatva siddhihi. If, by the previous logic, purvantavad bhavena, matuhu krupa atava bhratuhu putraha ityatra idudupadasya chapratyasya ityanena shatvam siddhyate, tarhi kaskadigane bhratushputra shabdasya pathaha vyarthaha. Then Panini did not have to include that word in the Kaskadigana. If by this logic, by saying Purvantavadbhavena, it is not belong to Pratyaya, so let us do Shatva using Idudupadasya Chapratyasya. If that were the case, Panini would not have included Bhratushputraha in the Gana. So by including it, he indicates that Ekadesha Shastra Nimittakasya na Shatvam. Yatra evam, ekadesha shastrena rutte tasya visargaha utpadyate, tatra shatvam na bhavati, tena ihana matuhu krupa. Therefore, except bhratushputraha, nowhere else we get shatva. Matuhu krupa ityatra shatvam na bhavati. There is no shatva because we cannot employ purvantavadbhava here, because of this vartika. Okay, let's see if I'll finish this also. Muhusaha pratishetaha. For this, Muhusaha, Muhus ityavyayam, tasya pratishedhaha, tasya shatvam na bhavati, iti vaktavyam. Muhus ityavyayasya shatvam nasyant kuppohu. Muhuhu kama ityasti. Atra pratyayasya visargaha nasti. This visarga does not belong to pratyaya. Muhus itself is an avyaya. Tasya rutve visarge muhuhu. Idudupadhasya ukaropadhaha asti. So the conditions apply, but because of this vartika, muhusa pratishedhaha ityuktatva, atra shatvam na bhavati. Jishvamuliyaha athava visargaha. Muhuk kama, muhuhu kama. Okay. Any doubts? Any other questions? Visarga Sandhi, please go through it as we do it, because it is rather confusing the first time. So if you can just go through it as we do it, it would be nice. Masuji?
The previous example where you are talking about Matrikum and Drakutum.
Right.
And the Vartikam is not clear to me at least.
Okay.
Maybe I can go through that in the next class if you want to.
Okay, thank you. Because
you have the time now.
I'll do it in next class. Please go through this again. If you do not understand, I'll explain it again. Because I have to leave for... I'm going out of town tonight, so I'm a bit of a hurry. So, I'll take questions. If you have any more, I'll take it in the next class. And I'll explain it again in the next class.
Thanks.
ಏನಾಕ್ಷರಸಮಾಂ ನಾಯಮತಿ ಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕುತ್ಸಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ಮುಹಿತ್ತಯ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತಿ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ ಗರಚ್ಯತೆ